एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। मधेस प्रदेशस्य मुख्यमन्त्रीपदे लोकतान्त्रिक समाजवादी दल नेपालस्य जितेन्द्र सोनल नियुक्तो वर्तते। प्रदेश प्रमुख पदीयया सुमित्रा सुवेदी भण्डारी तेनया नेपालस्य संविधानस्य अष्टाषष्ट्युत्तर शततम्याः धारायाः द्वितीय पधारायाः अनुसारेण सोनल ह्यो मुख्यमन्त्री पदे नियुक्तो स्थिति। मधेस प्रदेशस्य प्रदेश प्रमुख कार्यालयस्य निमित्त सचिवेन शत्रुघ्न यादवेन ह्य सायं प्रकाशितायां विज्ञप्तौ लिखितं वर्तते। ह्य एव सोनल इत्यनेन लोसपा दलस्य जनता समाजवादी दल नेपालस्य जनमत दलस्य नेकपा माओवादी केन्द्रस्य नेकपा एकीकृत समाजवादी दलस्य च समर्थनेन सर्वकारस्य संघटनाय बहुमतस्य सत्वं प्रस्तुत्य मुख्यमन्त्री पदस्य कृते प्रदेश प्रमुखस्य समक्षं सत्वं प्रस्तुतम् आसीत्। नवनियुक्तो मुख्यमन्त्री सोनल बारा जनपदात् द्वितीयवारं प्रदेश सभा सदस्य लोसपा दलात् निर्वाचितो वर्तते। नेकपा एमाले दलस्य एकादशं राष्ट्रिय महाधिवेशनम् आगामिनः मार्गशीर्ष मासस्य सप्तविंशे अष्टाविंशे एकोनत्रिंशे च दिवसेषु पोखरायाम् आयोजयितुं प्रस्तावितं वर्तते। ललितपुरस्य जावला खेलस्थाने ह्य प्रारब्धे दलस्य केन्द्रीय समितेः उपवेशे दलाध्यक्षेण केपी शर्मा ओलिना प्रस्तुते राजनीतिक प्रतिवेदने महाधिवेशनम् पोखरा नगरे आयोजयितुं प्रस्तावः विहितोऽस्तीति। एमाले दलस्य प्रचार प्रकाशन विभागस्य प्रमुखेण राजेन्द्र गौतमेन ज्ञापितं वर्तते। अध्यक्षेण ओलिना प्रस्तुते राजनीतिक प्रतिवेदने सर्वकार संघटनस्य प्रक्रियायाः प्रतिनिधि सभायाः विघटनस्य वर्तमान सर्वकारस्य गतिविधीनां च विषयाः समाविष्टाः सन्तीति दलस्य महासचिवः शंकर पोखरेलः ज्ञापयति। उपवेशे दलाध्यक्षेण ओलिना देशस्य वर्तमानावस्थां लोकतान्त्रिक रूपेण जनपक्षीयेण शान्तिपूर्णेन रूपेण च समाधातुं सर्वैः राजनीतिकैः दलैः एकबद्धैर्भाव्यमिति विचारः व्यक्तः आसीत्। तदवसरे अध्यक्षेण ओलिना नेकपा एमाले दलस्य निर्माणाय महत्वपूर्ण योगदानं प्रदत्तवन्तः एकीकृत समाजवादी दलस्य नेतारः कार्यकर्तारश्च एमाले दलं प्रत्यागन्तुम् अनुरुद्धाश्च आसन्। अत्रान्तरे उपवेशे दलाध्यक्षेण ओलिना प्रस्तुतं राजनीतिक प्रस्तावम् आधृत्य केन्द्रीय समितेः सदस्यैः स्वस्य धारणायाः उपस्थापनस्य क्रमः प्रारब्धोऽस्ति। उपवेशे ह्य पञ्चाशता केन्द्रीय सदस्यै धारणा उपस्थापितास्ति। अद्य पुनः प्रात अष्टवादने प्रारभमाणे केन्द्रीय समिते उपवेशे अवशिष्ट सदस्यै स्वीय धारणा उपस्थाप्यते इति दलस्य प्रचार विभाग प्रमुख राजेन्द्र गौतम असूचयत्। नेपाली कांग्रेस दले विशेष महाधिवेशनस्य याचनां विधाय संकलितानि हस्ताक्षराणि कार्यवाहक सभापतये पूर्णबहादुर खड्का विधाय अर्पितानि सन्ति। सानेपावर्तिनम् दलस्य केन्द्रीय कार्यालयम् प्राप्य कार्यवाहक सभापतये खड्का विधाय हस्ताक्षराणां प्रपत्रम् अर्पितम् अस्तीति कांग्रेस दलस्य नेता गुरूराज घिमिरे असूचयत्। विशेष महाधिवेशनस्य पक्षे प्रतिशतं 0.5 चतुःपञ्चाशता प्रतिनिधिभिः हस्ताक्षरितानि सन्तीति असौ असूचयत्। कांग्रेस दलस्य विधानस्य अनुसारेण विशेष महाधिवेशनस्य आह्वानाय प्रतिशतं 40% महाधिवेशन प्रतिनिधीनां हस्ताक्षराणाम् आवश्यकतायाः प्रावधानं वर्तते। सर्वोच्च न्यायालये प्रतिनिधि सभायाः विघटनस्य विरूद्धे 10 आदेशावियाचन निवेदनानि पञ्जीकारितानि वर्तन्ते। सर्वोच्च न्यायालयस्य प्रवक्त्रा अर्जुन प्रसाद कोइराला विधेन इमानि निवेदनानि आधृत्य आगामिनः कार्तिक मासस्य द्वादश दिवसः श्रवणस्य कृते दिनं निर्धारितं वर्तते इति सूचितं वर्तते। प्रवक्तो कोइराला विधस्य अनुसारेण प्रधानमन्त्रिणः नियुक्तेः निरसनस्य संसद विघटनस्य कार्यस्य निरसनस्य संसद पुनस्थापनायाश्च विषयेष् उत्प्रेषण परमादेशस्य याचनां विधाय गत मंगलवासरे प्रस्तुतानि 10 आदेशावियाचन निवेदनानि पञ्जीकारितानि सन्ति। पञ्जीकृतानां निवेदनानां सांवैधानिक न्यायपीठे श्रवणं भविता। आदेशाभियाचना निवेदनानां प्रस्तोतारः अधिवक्तारः डाक्टर प्रेमराज सिलवाल, युवराज पौडेल, कीर्तिनाथ शर्मा पौडेल, आयुष बडाल, मकबुल मिया, खड्गबहादुर शाह, डम्बर प्रसाद शिवाकोटी, दलबहादुर धामी, प्रकाश भुजेल, विपिन ढकालश्च वर्तन्ते। सभामुखेन देवराज घिमिरे विदेन संसद पुनस्थापना अथवा निर्वाचनम् इत्यस्मिन् विषये दलेभ्य धारणा याचितास्ति। सभामुखेन घिमिरे विदेन ह्य सर्वदलीयोपवेशम् आहूय दलानां धारणा याचितास्ति। उपवेशे सभामुखेन घिमिरे विदेन संविधानस्य लोकतान्त्रिक व्यवस्थायाश्च रक्षायै आत्मना प्रयत्यते तत्र दलानां सहयोगस्य आवश्यकतास्तीति धारणा उपस्थापितासीत्। उपवेशस्य पश्चात् दलानां प्रतिनिधिभिः मिश्रित धारणाः उपस्थापिताः वर्तन्ते। एवमेव उपवेशे सर्वकार संघटनस्य प्रतिनिधिसभाया विघटनस्य च विरूद्धे सर्वोच्च न्यायालये आदेशाभियाचना न्यायिक निवेदनानां पञ्जीकारणात् न्यायालयेन विहितस्य निर्णयस्य अनुसारेण अग्रे वर्धनं समुचितं भवतीति च दलानां प्रतिनिधिभिः उक्तं वर्तते। प्रधानमन्त्री सुशीला कार्की निगदति विपिन जोशिनः त्यागस्य साहसस्य च स्मरणं राष्ट्रेण सर्वदैव विधीयते। प्रधानमन्त्रिणा कार्किणा ह्य प्रकाशितायां समवेदनायां वर्षद्वयात् उन्मुक्तेः आशाया सामूहिक प्रार्थनायाश्च मध्ये नेपाली विद्यार्थिना विपिन जोशिना दुःखद मृत्योः पुष्टिभवनत्वेन गत मंगलवासरे प्राप्तेन समाचारेण आत्मनस्तब्धता अनुभूतेति समवेदनायाम् उल्लिखितं वर्तते। समवेदनायां प्रधानमन्त्रिणा कार्किणा जोशी केवलम् एकः विद्यार्थी एव नासीत् अपितु ज्ञानस्य पिपा सया विदेशं गतानां सहस्रशः नेपाली यूनाम् उज्ज्वल प्रतिनिधिः वर्तते इति उल्लिखितम् अस्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन सह राष्ट्रियसभायाध्यक्षेण नारायण प्रसाद दाहालेन आईपीयू नाम्न्याम् अन्तर व्यवस्थापिका संघस्य महासभायां नेपालस्य सहभागिताया आगामिनि माघमासे सम्पत्स्यमानस्य राष्ट्रियसभाया निर्वाचनस्य च सन्दर्भे विमृष्टं वर्तते। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये राष्ट्रपतिना पौडेलेन सह अध्यक्षेण दाहालेन ह्य विहिते मेलने आईपीयू संस्थाया एकपञ्चाशदुत्तरैकशततम्यां महासभायां नेपालस्य संघीय संसद पक्षतः सहभागिताया विषये आगामि माघमासे सम्पत्स्यमानस्य निर्वाचनस्य सामयिक विषये च विमृष्टमिति अध्यक्षस्य दाहालस्य सचिवालयेन ज्ञापितं वर्तते। पुरूष क्रिकेट क्रीडाया टी ट्वेन्टी स्वरूपस्य विश्व चषक प्रतियोगिताया चयन प्रतियोगिताया पञ्चम्यां क्रीडायां अष्टत्रिंशत धावनांकानाम् अन्तरेण ओमान देशं पराजित्य नेपाल विश्व प्रतियोगिताया कृते प्रचितो वर्तते। गतरात्रौ ओमान देशस्य अल अमेरिट क्रिकेट क्रीडा रंगशालायां सम्पन्नायां प्रचयन चरणस्य उपान्तिम क्रीडायां प्रथमं क्रीडितेन नेपालेन निर्धारितेषु विंशत्याम् ओवरांकेषु नव क्रीडकान् हापित्वा एकपञ्चाशदुत्तरशतं धावनांकान् योजयित्वा विजयार्थम् ओमान देशाय द्विपञ्चाशदुत्तरशतस्य धावनांकानां लक्ष्यं प्रदत्तम् आसीत्।